पूर्वं परार्थे यः पीडाम् अनुभवति इक्षुदण्डः अस्ति किल परार्थे पीडाम् अनुभवति इत्युक्तमासीत् तत्र अनुभवति इत्युक्ते जीवतः जनस्य धर्मः अनुभवः इक्षोः जीवाः न भवन्ति अतः तत्र अन्यः अर्थः दृश्यते तादृश स्थानेषु लक्षणा इति कथ्यते ध्वनिः नास्ति ध्वनिः नाम कुत्र इति चेत् मुक्त्यन्तरेण अशक्यं चारुत्वं यत् प्रकाशते चारुत्वं सौन्दर्यं यदस्ति तत् अन्येन केनापि प्रकारेण उक्त्यन्तरेण अन्यया उक्त्या अन्येन वचनेन यद् चारुत्वं वक्तुमेव न शक्यं तादृशं चारुत्वं यः शब्दः विञ्जयति सः ध्वनिः इत्युक्ते एकस्मिन् पद्ये एकः अर्थः उक्तः अस्ति इति चिन्तयति तद् अन्येन नावगम्यते इति कृत्वा अन्यं शब्दं वदति एतस्य अर्थः एवं निर्वर्णयति इति चिन्तयति अन्येन शब्देन तदा एतदेव चारुत्वं न अनुभूयते तदृशं किञ्चित् अनुभूयते इदानीं मूलं किञ्चन काव्यं भवति तस्य अनुवादोऽपि कश्चन भवति अनुवादः यद्यपि सुन्दरः भवति न भवति इति न तथापि मूलस्य यत् तत्त्वमस्ति माधुर्यमस्ति तद् अनुवादे भवति नार्हति किमर्थमित्युक्ते मूलस्य भावः यः अस्ति सः उक्त्यन्तरेण वक्तुम् अशक्यः एवमेव यत्र ध्वनिः भवति तत्र यः अर्थः भवति उक्त्यन्तरेण अशक्यं वक्तुम् अशक्यः यः अर्थः अस्ति तमर्थं एषः शब्दः वदति चेत् तत् ध्वनिः अस्ति उक्त्यन्तरेण वक्तुम् अशक्यः अर्थः एषः शब्दः एव प्रयुक्तः भवेत् अन्या उक्तिः प्रयुक्ता न भवेत् तादृशम् अर्थं यत्र शब्दः वहति तत्र ध्वनिः अस्ति उक्त्यन्तरेण अशक्यं चारुत्वं यदस्ति तद् प्रकाशयन् शब्दः व्यञ्जकतां बिभर्ति तस्य शब्दस्य एषः शब्दः व्यञ्जकतां बिभर्ति अस्य शब्दस्य व्यञ्जकत्वम् अस्ति सः शब्दः अन्येन केनचिदपि वचनप्रकारेण दातुम् अयोग्यम् अर्थं सः शब्दः दत्तम् अनुभवति बोधः न भवति चेत् वयम् अन्य पर्यायशब्दम् उक्त्वा तम् अर्थं तदर्थतां कर्तुं शक्नुमः अन्य उदाहरणानि यानि उक्तम् अत्र एवं भवतां बोधः न भवति चेत् एवम् अर्थं स्वीकुर्वन्तु इति अन्यप्रकारेण वदामः शब्दपरिवर्तनं करोति चेत् चारुत्वमेव अपगच्छति तथा अस्ति चेत् तादृशम् अर्थं यः शब्दः बोधयति तत्र व्यञ्जकत्वम् इति शब्दः सः एव ध्वनिः विषयः भवेत् कः एव शब्दः भवेत् सः शब्दः अस्ति चेदेव सः अर्थः भवति वर्णनमात्रेण किञ्चित् बुध्यते तत् न इदानीम् अहं पूर्वम् एकं पद्यम् उक्तवान् किमस्ति लीलाकमलपत्राणि गणयामासपार्वती इति सर्वं वर्णितवान् तात्पर्यं किं वदन्ति भवन्तः इति चेत् पार्वत्याः लज्जा अभवत् इति अर्थः इति वदन्ति तदेव वक्तुं शक्यते किल पार्वत्याः लज्जा अभवत् इति अन्य उक्तयन्त्रेण वदति चेत् किन्तु पार्वत्याः लज्जा अभवत् इति साक्षात् शब्दप्रयोगेण वस्तुतः अपेक्षितः अर्थः न ध्वन्यते अतः उक्त्यन्तरेण अशक्यं यदस्ति तद् तादृशं यः शब्दः बोधयति तत्र ध्वनिः उच्यन्तरेण अशक्यं यत् चारुत्वमस्ति तत् चारुत्वं प्रकाशयन् शब्दः व्यञ्जकतां विभर्ति तदेव ध्वन्युक्तेः विषयः भवेत् ध्वनिः इत्यस्य विषयः सः एव भवितुमर्हति किञ्च अग्रे अस्ति रूढाये विषयेऽन्यत्र शब्दात्ववि విషయాదతి
శబ్దాదతి
లావణ్యాద్యా ప్రయుక్తాస్తే
లావణ్యాద్యా ప్రయుక్తాస్తే
నభవంతి పదం ధ్వనే
నభవంతి పదం ధ్వనే
इत्युक्ते भवन्तः किम् उक्तवन्तः कोऽपि एकः शब्दः अस्ति तस्य अन्योपि अर्थः अस्ति सः द्वितीयः अर्थः अस्ति तत्र ध्वनिः इति वदन्ति चेत् यत्र यत्र अर्थद्वयं प्रतीयते शब्दः अन्यम् अर्थं ददाति तत्र सर्वत्र ध्वनिः इति न गृहीतव्यम् कथम् इति चेत् तर्हि केचन शब्दाः सन्ति तस्य शब्दस्य मुख्यया वृत्त्या एकः अर्थः बुध्यते किन्तु तस्य अन्योपि अर्थः अस्ति कथम् इति चेत् लावण्यादयः शब्दाः लावण्यम् इति शब्दः अस्ति सर्वे श्रुतवन्तः किल सुन्दरी अस्ति तस्याः लावण्यमस्ति इति वयं वदामः किन्तु लावण्यशब्दः कथम् आगतः इति चेत् लवणस्य भावः लावण्यम् भोजने लवणस्य उपयोगः कुर्मः किल लवणस्य भावः अस्ति चेत् लावण्यम् इति वदामः अतः संस्कृतविद्वांसः कदाचित् भोजनसमये तारे वा क्वचिदे वा कुत्रापि लवणम् अधिकमस्ति आहा भोजने लवण्यमस्ति इति वदन्ति कः अर्थः लवणादिति वदन्ति लावण्यमस्ति इति वदन्ति अत्र वस्तुतः लवणशब्दस्य अर्थः लवण लावण्यशब्दस्य अर्थः लवणस्य भावः इति किन्तु कुत्र लोके प्रयुज्यते तद इति चेत् सौन्दर्यम् कान्तिस्तत्वम् इत्यर्थे लावण्यशब्दः प्रयुज्यते एवमेव सब्रह्मचारी इत्येकशब्दः अस्ति ब्रह्मचारीशब्दं वयं सर्वेपि जानीमः गुरुकुले यः पठति सः अस्ति ब्रह्मचारी इत्युच्यते तेन सह अन्यः यः पठति सः सब्रह्मचारी इत्युक्ते क्लास्मेट् इति वयं वदामः तस्मिन् अर्थे सब्रह्मचारी इति शब्दः प्रयुज्यते तद्वत् एतस्य अयं सब्रह्मचारी इति वदति चेत् तत् सदृशः अथवा सोदरशब्दः अस्ति सोदरशब्दस्य कः अर्थः समानम्
उदरम्
इत्युक्ते समानात् गर्भात् यौ आगतौ भ्रातरौ तयोः सोदरौ इति व्यवहारः अस्ति वस्तुतः शब्दार्थः किन्तु तत्र सर्वम् एते परस्परं सोदराः इति वदन्ति तत्र अर्थः युज्यते वयं वदामः अस्माकम् अलङ्कारशास्त्रे रसास्वादः अस्ति किल एषः ब्रह्मानन्दसहोदरः ब्रह्मानन्दसोदरः इति वदामः इत्युक्ते ब्रह्मानन्दोऽपि रसास्वादापि रसास्वादोऽपि एकस्मात् उदरात् आगतौ वा तर्हि सोदरशब्दस्य कः अर्थः सदृशौ समानौ अतः रूढाः ये विषये अन्यत्र ये अन्यत्र विषये रूढाः सन्ति स्वविषयादपि अन्यत्र स्वस्य यः विषयः अस्ति लावण्यम् लवणस्य भावः लावण्यम् इति सः विषयः स्वविषयादपि अन्यत्र इत्युक्ते लावण्यम् सौन्दर्यम् इत्यत्र रूढाः ये शब्दाः सन्ति स्वविषयादपि अन्यत्र विषये ये शब्दाः रूढाः सन्ति लावण्यः प्रयुक्ताः सन्ति ते ध्वनेः पदम् न भवन्ति ते ध्वनेः विषयाः न भवन्ति अतः तत्र ध्वनिः अस्ति इति वक्तुं न शक्यते अर्थद्वयमस्ति शब्दस्य वास्तविकः अर्थः इत्युक्ते कोशगतः मुख्यार्थः एकः अस्ति किन्तु अन्यस्मिन् अर्थे ते शब्दाः रूढाः सन्ति इति कृत्वा द्वितीयः अर्थः अस्ति किल सः ध्वनिः इति नाम ध्वनेः पदम् न भवन्ति कुशलशब्दः अस्ति पूर्वमपि उक्तमासीत् किल कुशलः इति शब्दः अस्ति यः शीघ्रं कुशान् आनयति सः कुशलः गुरुकुले पूर्वं किं कुर्वन्ति स्म छात्रान् सर्वान् उद्दिश्य सर्वे गच्छत कुशान् आनयत इति आनीतन्ति स्म कश्चन बहु शीघ्रं गत्वा कुशान् आनयति यः बहु शीघ्रं कुशान् लाति इति सः कुशलः यः शीघ्रं गत्वा कुशान् आनयति सः वस्तुतः कुशलः भवान् कुशलः भवान् कुशलः इति वदन्ति स्म गच्छता कार्ये किम् अभवत् कुशलः इति शब्दस्य कः अर्थः इति चेत् यः शीघ्रं कार्यं करोति यः सम्यक् कार्यं करोति सः कुशलः इति कुशलशब्दस्य अर्थः कुशं यः आनयति सः कुशलः अतः कुशलशब्दः स्वस्य अर्थः यः अस्ति कुशान् लाटी इति यः अर्थः अस्ति तस्मात् अन्यस्मिन् अर्थे चतुरः इत्यर्थे प्रयुक्तः अस्ति तादृशेषु स्थानेषु ध्वनेः पदं न भवति ध्वनेः अवसरः न भवति अतः लावण्याद्याः शब्दाः सन्ति किल तत्र उदाहरणानि लावण्यं सद्ब्रह्मचारी तथैव सोदरः कुशलः इत्यादि सर्वत्र ध्वनिः न भवति अग्रे तेषु च उपचरितशब्दवृत्तिः अस्ति इति तर्हि उपचरितशब्दवृत्तिः शब्दवृत्तिः नाम उच्चावृत्तिः अभिधावृत्तिः अभिधावृत्तिः तत्र उपचरितः अस्ति उपचारस्य ग्रहणं तत्र भवति इति तथा विदेशविषये ध्वनिव्यवहारः कालान्तरेण प्रवर्तते न तथा विधशब्दमुखेन तत्रापि कदाचित् प्रकारान्तरेण अन्येन प्रकारेण ध्वनिः अस्ति इति चेत् तथापि तत् अनेन शब्देन तु न क्रियते शब्दान्तरेण न तथाविधशब्दमुखेन एतादृशशब्दमुखेन न क्रियते ध्वनिः अस्ति इति कदाचित् वक्तुं शक्येत अनेन प्रकारेण ध्वनिव्यवहारः कर्तुं शक्यते किन्तु वस्तुतः तत्र ध्वनिः नास्ति अपि चेत्
गुणवृत्त्यार्थदर्शनम्
यदुद्दिश्य फलम् तत्र शब्दो नैव स्खलद्गतिः
एकाचित्
मुख्या कारिका किञ्चित् भवतां स्मरणार्थम् शब्दस्य अर्थावरणं भवति किल तत्र वस्तुतः त्रयः व्यापाराः अनुभूयन्ते विशिष्य के त्रयः व्यापाराः इति चेत् एकं तु अभिधाव्यापारः अनन्तरं लक्षणाव्यापारः अनन्तरं व्यञ्जनाव्यापारः इति त्रयः व्यापाराः अनुभूयन्ते अर्थाः अपि त्रिविधः मुख्यार्थः अथवा अभिधार्थः अनन्तरं लक्ष्यार्थः अनन्तरं व्यङ्ग्यार्थः सामान्य मुख्यार्थः अथवा अभिधार्थः अनन्तरं लक्ष्यार्थः अनन्तरं व्यङ्ग्यार्थः स्वतम् एक ज्ञानाय मुख्यार्थः नाम कः इति चेत् सरलतया वक्तव्यं चेत् यस्य शब्दस्य स्मरणेन यस्य अर्थस्य स्फुरणं भवति सः मुख्यः पुस्तकम् इति वदामि चेत् भवतां तस्य स्मरणं स्फुरणं भवति एतादृशस्य पत्रसहितस्य आकारसहितस्य आकारविशिष्टस्य कस्यचित् वस्तुनः स्मरणं भवति कोशादिषु अयमर्थः दत्तः अपि भवति अस्माकम् अनुभवोऽपि भवति अतः यस्य शब्दस्य श्रवणेन यस्य अर्थस्य स्फुरणं भवति सः अर्थः अभिधेयार्थः अथवा मुख्यार्थः मुख्यार्थः कथं भवति इति चेत् तदर्थम् एकः प्रोसेस् व्यापारः आवश्यकः सः व्यापारः अभिधाव्यापारः इति प्रथमं द्वितीयम् अस्ति लक्ष्यार्थः लक्ष्यार्थः भवति चेत् तत्र व्यापारः अस्ति किल तद् लक्षणाव्यापारः लक्षणाव्यापारः किमर्थं भवति इति पृच्छति चेत् कुत्रचित् मुख्यार्थः न सङ्गच्छते मुख्यार्थस्य भागः भवति मुख्यार्थः न सङ्गच्छते एव चेत् तदा तत्र अन्यः अर्थः स्वीक्रियते इदानीम् उदाहरणार्थं गङ्गायां घोषः तत् प्रसिद्धम् उदाहरणम् अत्र कक्षायां बहवः छात्राः सन्ति एकः छात्रः अन्तः आगतवान् विलम्बेन आगतम् हरे गर्गवः आगतः इति वदामि छात्रशब्दः छात्रशब्दस्य कः अर्थः एकः अर्थः अस्ति गर्गवशब्दस्य वस्तुतः कः अर्थः अस्ति तस्य अर्थस्य स्मरणं भवति भवतां गान्धी इत्यस्यैव कल्पनं भवति सः अर्थः अत्र सङ्गच्छते वयं बालं पश्यन्तः स्मः एतस्य पादद्वयमस्ति अस्माकम् आकृतिः अस्ति तादृशी आकृतिः अस्ति किन्तु गर्दवस्य मुख्यार्थः अन्यः अस्ति सः अर्थः अत्र न सङ्गच्छते इति वयं जानीमः मुख्यार्थस्य भागः यत्र भवति तत्र अस्माभिः कारणे लक्ष्यार्थः कल्प्यते द्वितीयः
किमर्थम् इति चेत् तथा द्वितीयस्य अर्थस्य स्वीकरणार्थमपि तत्र कारणद्वयम् आवश्यकम्. एकं तु रूढिः भवेत् अथवा किमपि प्रयोजनं भवेत्. रूढिः अस्ति वा कुशलः इति कुशलशब्दस्य वास्तविकः अर्थः कुशलादि इति अर्थः बालकमुद्दिश्य एषः कुशलः इति वदामि. वास्तविकः अर्थः मुख्यार्थः अस्ति सः न सङ्गच्छते. तर्हि अन्यमर्थं गृह्णामि. कमर्थं गृह्णामि? चतुरः इत्यर्थं गृह्णामि. किमर्थम् इति चेत् प्रयोजनं मनसि. चतुरः इति वदामि चेत् कुशलः इति वदामि चेत् चतुरः इति प्रयोजनं सिद्ध्यति. अतः प्रयोजनं मनसि विहाय अत्र अन्यं लक्ष्यार्थम् अहं स्वीकरोमि. अतः लक्ष्यार्थः करणीयः चेत् मुख्यार्थस्य बाधा भवेत् इति एका अपेक्षा. द्वितीया अपेक्षा रूढिः अथवा प्रयोजनं द्वयोर्मध्ये एकतरं भवेत् वा. मुख्यार्थवादेतद्योगे रूढितो तत्प्रयोजना लक्षणागच्छते इत्येव एकं कथनम्. मुख्यार्थस्य बाधा भवेत् रूढिः अनन्तरं लक्षणं द्वयोर्मध्ये एकतरं भवेत् इति वस्तुतः अपेक्षां कथनम्. अत्र इदानीं यत्र प्रयोजनमस्ति तादृशं किञ्चित् स्वीकुर्मः चेत् गङ्गायां घोषः इत्युक्ते भवन्तः स्मृतवन्तः किल. गङ्गायां घोषः इत्युक्ते घोषशब्दस्य कः अर्थः? पल्ली घोष आभीरपल्ली स्यात् इति वर्तते. घोष नाम आभीरा. गोपाः यत्र वासं कुर्वन्ति तादृशः ग्रामः तस्य घोषः इति. गङ्गायां पल्ली अस्ति, ग्रामः अस्ति. गङ्गा नाम कस्य स्मरणम् अस्माकं भवति? गङ्गा नदी, नद्याः प्रवाहः खलु. अतः गङ्गाशब्दस्य मुख्यार्थः अस्ति प्रवाहरूपः. तत्र प्रवाहे ग्रामः भवितुं नार्हति. अतः मुख्यार्थः बाधितः नाम मुख्यार्थः कथं बाधितः? प्रवाहस्य उपरि ग्रामः स्थातुं नार्हति. अतः कः अर्थः स्वीकरणीयः इति चेत् गङ्गातीरे घोषः इति लक्ष्यार्थः. तर्हि तीरम् इति अर्थं गृहीतुं रूढिः वा प्रयोजनं वा किमपि एकं कारणं भवेत्. मुख्यार्थबाधः भवेत् अनन्तरं रूढिः वा प्रयोजनं वा भवेत्. रूढिस्तु नास्ति. प्रयोजनं किम् अस्ति इति चेत् गङ्गातीरे घोषः इति वदति चेत् शीतत्वं पावनत्वम् इत्यादि प्रयोजनानि भवन्ति. गङ्गातीरे घोषः इति कथनापेक्षया गङ्गायां घोषः इति कथनेन तत्र बहु शीतत्वं पावनत्वम् इत्यादयः अर्थाः गृहीताः भवन्ति. गङ्गातीरे घोषः इत्यपि तेषु प्रसङ्गेषु विशिष्य इदानीं वदति मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनं यदुद्दिश्य फलं तत्र शब्दो नैव खलव्यतिः. मुख्यां वृत्तिं परित्यज्य मुख्या वृत्तिः नाम अभिधा वृत्तिः. मुख्या वृत्तिः नाम अभिधा वृत्तिः. अभिधा वृत्तिं परित्यज्य गुणवृत्त्या अर्थदर्शनं. गुणवृत्त्या नाम लक्षणावृत्त्या. गुणवृत्त्या नाम लक्षणावृत्त्या अर्थदर्शनं यत्र क्रियते तत्र. किमर्थं तथा क्रियते इति चेत् यदुद्दिश्य फलं. फलम् उद्दिश्य यत् गुणवृत्त्या अर्थदर्शनं क्रियते. अमुक्तं किल फलं किञ्चित् अपेक्षितमेव. किञ्चित् फलं मनसि विधाय एव अर्थस्य दर्शनं क्रियते. अतः अविधावृत्तिं परित्यज्य लक्षणावृत्त्या यत् फलम् उद्दिश्य अर्थदर्शनं क्रियते तत्र शब्दो नैव स्खलद्यतिः. द्वितीयः अर्थः उच्यते किल शीतत्वं पावनत्वम् इत्यादिकं. तत्र तु पुनः मुख्यार्थस्य बाधा न भवति. शब्दार्थस्य गतिः खलिता न भवति. द्वितीयं प्रयोजनमस्ति किल तं प्रयोजनं बोधयितुं शब्दस्य गतिः खलिता न भवति. इत्युक्ते द्वितीयवारम् अर्थः अस्ति किल तम् अर्थं शब्दः एव बोधयति मुख्यार्थः एव बोधयति शीतत्वं पावनत्वम् इति यः अर्थः अस्ति किल तम् अर्थं मुख्यार्थः एव बोधयति तत्र पुनः लक्षणा इति आवश्यकी नास्ति एकं कल्पनां कुर्वन्तु एकः शब्दः अस्ति शब्दस्य कश्चन मुख्यार्थः अस्ति तस्य मुख्यार्थस्य बाधा आगता लक्षणावृत्तिम् अयं स्वीकृतवन्तः लक्ष्यार्थम् अन्यं स्वीकृतवन्तः द्वितीयः लक्ष्यार्थः अस्ति किल तं लक्ष्यार्थं बोधयितुं पुनः तत्र बाधा अस्ति अतः पुनः अन्यः अर्थः इति न गृहीतव्यं तथा क्रियते चेत् एकः मुख्यार्थः तस्य बाधा आगता इति द्वितीयः लक्ष्यार्थः तत्र तस्य बाधा आगता इति पुनः अन्यः एवं गृह्णीमश्चेत् अनवस्था भवति इति वदन्ति अतः द्वितीयः यः अर्थः अस्ति तम् अर्थं बोधयितुं शब्दः नाम मुख्यार्थदाता शब्दः अस्ति तस्य गतौ कलनं न भवति द्वितीयम् अर्थं शब्दः अविदावृत्या एव ददाति शब्दो नैव स्खलब्धति अतः श्लोकस्य अन्वयः एव अस्ति मुख्यां वृत्तिं परित्यज्य गुणवृत्त्या यत् फलम् उद्दिश्य अर्थदर्शनं भवति तत्र शब्दः खलद्गतिः न भवति शब्दः नाम मुख्यार्थः शब्दः एव अस्ति मुख्यार्थदातः शब्दः अस्ति तस्य गतिः स्खलिता न भवति तत्र हेते चारुत्वादिते विशिष्टार्थप्रकाशनलक्षणे प्रयोजने कर्तव्ये इति शब्दस्य अमुच्यता तदा तस्य प्रयोगे दुष्टता एव स्यात् चारुत्व अतिशय विशिष्ट अर्थप्रकाशनलक्षणे प्रयोजने एवं प्रयोगं करोति किल तत्र प्रयोजनं किमपि पृच्छति चेत् चारुत्वातिशय विशिष्ट अतीव चारुत्वविशिष्ट प्रकाशनम् एतदेव प्रयोजनम् इति वदति तादृशलक्षणे प्रयोजने कर्तव्ये तदानीमपि इत्युक्ते द्वितीयं प्रयोजनम् इति चित्तं किल तस्य वर्णने इति शब्दस्य अमुख्यता इति वदति चेत् तदा तस्य प्रयोगः एव दुष्टः स्यात् तादृशप्रयोगकरणमेव दुष्टं भवति न च एवम् एवं न तस्मात् इदानीं निर्णयं प्राप्यते वाचकत्वाश्रयेणैव
गुणवृत्तिर्व्यवस्थिता
व्यञ्जकत्वैकमूलस्य
ध्वनेस्यालक्षणं कथम्
गुणवृत्तिः नाम लक्षणावृत्तिः तथैव इदानीं ध्वनिः नाम व्यञ्जवृत्तिः अर्थं गृहीतुं शक्नुमः गुणवृत्तिः या अस्ति सा गुणवृत्तिः वाचकत्वाश्रयेणैव व्यवस्थिता वाचकत्वमेव आश्रित्य लक्षणावृत्तिः व्यवस्थापिता अस्ति सो कुत्रापि एकत्र लक्षणावृत्तिः अस्ति इत्यत्र निर्णायकं किम् इति चेत् शब्दस्य वाचकत्वं मनसि निधाय अत्र वाचकत्व आश्रयेण एव गुणवृत्तिः व्यवस्थापिता भवति ध्वनिः तु व्यञ्जकत्वैकमूलस्य ध्वनेः मूलं तु व्यञ्जकत्वमेव तदेव व्यञ्जकत्वैकमूलस्य ध्वनेः तद् लक्षणं कथं भवितुमर्हति लक्षणायाः विषये भवन्तः यदुक्तवन्तः तत्सर्वं व्यञ्जकत्वं यदस्ति तत्र कथं भवितुमर्हति भवितुमेव तद्भिन्नम् एतद् भिन्नम् तत्र वाचकत्वं प्रधानम् अत्र तु बीजकत्वं प्रधानम् अतः गुणवृत्तिः ये उक्तवन्तः भवन्तः तद् ध्वनेः लक्षणं भवितुं नार्हति अग्रे वाचयन्ति तस्मात् अन्यो ध्वनिः अन्याश गुणवृत्तिः स्वरूपमेव भिन्नमभवत् एकत्र वाचकत्वं प्रधानम् अन्यत्र बीजकत्वं प्रधानं तस्मात् अन्यः ध्वनिः अन्या च गुणवृत्तिः औद्याद्दिरपि अस्य लक्षणस्य न हि ध्वनिप्रभेदः विवक्षितान्यपरवाच्यलक्षणः अन्ये च बहवः प्रकाराः भूत्या व्याप्यन्ते औद्याद्दिरपि अस्य लक्षणस्य एतादृशं लक्षणं वदामश्चेत् इदानीं गुणवृत्तिः अथवा लक्षणा इत्यस्य यद् लक्षणम् उक्तवन्तः तदेव ध्वनेः लक्षणमिति वदामः चेत् अव्याप्तिः अव्याप्तिः दोषः भवति अतः अव्याप्तिः दोषः भवति न हि ध्वनिप्रभेदः विलक्षितान्यपरवाच्यलक्षणः अन्ये च बहवः प्रकाराः भक्त्या व्याप्यन्ते ध्वनेः बहवः प्रकाराः सन्ति तेषु सर्वेषु भक्तेः लक्षणं यदस्ति तद् न व्याप्नोति इदानीं ध्वनेः प्रकारान् वयं वदामः सहस्राधिकप्रकाराः सन्ति ध्वनेः लक्षणायाः ध्वनेः समानं लक्षणं वदामश्चेत् ध्वनेः सहस्रं वेदास्सन्ति तेषु सर्वेषु एतद् लक्षणमिदस्ति लक्षणायाः लक्षणमिदस्ति तद् न सङ्गच्छति तद् सर्वत्र न व्याप्नोति तस्मात् भक्तिः अलक्षणम् अतः भक्तिः यद् वदति यद् भवन्तः उक्तवन्तः एतावत्पर्यन्तं भक्तिः भक्तिः इति उक्तवन्तः तद् ध्वनेः लक्षणं न भवति भक्तिः अलक्षणम् तस्मात् भक्तिः अलक्षणम् अलक्षणं नाम ध्वनेः लक्षणं भवितुम् अर्हति अग्रे च इत्युक्ते यत्र यत्र ध्वनिः अस्ति न भक्तिः अस्ति तत्र सर्वत्र ध्वनिः इति वयं वक्तुं न शक्नुमः ध्वनेः सहस्रं भेदाः सन्ति तत्र कुत्रचित् एकत्र भक्तिः अपि भवितुमर्हति अतः ध्वनेः कस्यचित् भेदस्य एतद् उपलक्षणं भवितुमर्हति उपलक्षणं नाम किम् इति चेत् एवं वदन्ति इदानीम् अस्माकं गृहस्य मार्गे कदाचित् कश्चन भवतः गृहं कुत्र अस्ति इति पृच्छति मम गृहं मेरि हिल्स् मध्ये अस्ति मधुसूदनः वदति कथम् अन्वेषयम् इत्युक्ते मम गृहस्य पुरतः एका किं मल्लिका लता अस्ति इति वदति अन्विष्यन् गच्छामि यत्र यत्र मल्लिका अस्ति तत् सर्वं तस्य गृहम् इति भवति वा मल्लिका लता इत्युक्ते किञ्चित् उपलक्षणमात्रम् इत्युक्ते कस्मिंश्चित् प्रसङ्गे तस्य गृहस्य भवतः मल्लिका लता अस्ति इति दृश्यते अन्यदपि उदाहरणं वक्तव्यं चेत् मम गृहं देवदत्तस्य गृहं कुत्र इति चेत् पश्यतु तत्र यत्र काकः उपविष्टवान् तद् देवदत्तस्य गृहम् इति वदामः तद् किञ्चित् उपलक्षणम् किन्तु कथनसमनन्तरं काकरन्यस्य एवं तस्य उपलक्षणम् इति गच्छति इत्युक्ते कस्मिंश्चित् प्रसङ्गे कस्मिंश्चित् काले तदेतदिति वक्तुं शक्येत सर्वदा कथं प्रतिशतं यत्र यत्र तदस्ति तत्र सर्वत्र इति वक्तुं शक्यते अतः भक्तिः इति यदस्ति कस्यचित् ध्वनिभेदस्य उपलक्षणं भवितुम् सा तु स्यात् कस्यचित् ध्वनिभेदस्य उपलक्षणम् सा पुनः भक्तिः वक्ष्यमाणप्रभेदमध्यात् अन्यतमस्य भेदस्य यदि नाम उपलक्षणतया सम्भाव्येत अन्यतमभेदस्य यदि कस्यचित् भेदस्य उपलक्षणरूपेण इति सम्भाव्येत यदि च गुणवृत्त्या एव ध्वनिः लक्ष्येत इत्युच्यते तदभिधा व्यापारेण तदितरः अलङ्कारवर्गः समग्रः एव लक्ष्यते इति प्रत्येकमलङ्काराणां लक्षणकरणविवक्षप्रसङ्गः केवलम् उपलक्षणमेव भवति सर्वत्रापि भवत्येव इति वदन्ति चेत् तदा किं भवति इति चेत् अन्ये ये अलङ्काराः सन्ति तेषां सर्वेषां भिन्नभिन्न अलङ्कार इदानीं यत्र यत्र ध्वनयः सन्ति अथवा यत्र यत्र भक्तिः अस्ति सर्वत्र किं लक्षणास्ति इति उच्यते चेत् वयं किमुक्तवन्तः अलङ्काराः भवत्सन्ति एकैकस्यापि अलङ्कारस्य भिन्नं भिन्नं स्वरूपं लक्षणं सर्वं कृतवन्तः एतत् सर्वं निरस्तं भवति इत्युक्ते तत्र सर्वत्र लक्षणास्ति इति अङ्गीकृतं भवति अतः अभिराव्यापारेण तदितर अलङ्कारवर्गः समग्रः एव लक्ष्यते सर्वोऽपि अलङ्कारवर्गः अभिराव्यापारेण लक्ष्यते अलङ्काराः ये सन्ति तेषु सर्वेषु अपि अभिराव्यापारः अस्ति अतः तत्र सर्वत्र लक्षणा अस्ति अतः तत्सर्वं लक्षणा भक्तिः इति वदामश्चेत् तावद् अङ्गीकुर्मः चेत् तदा यत्र अलङ्काराणां सर्वे भेदाः ये सन्ति तत्र सर्वत्र लक्षणा एकमेव अङ्गीकुर्मः चेत् एकैकस्य अलङ्कारस्य पुनः लक्षणं करणम् इत्यादि किमर्थम् आवश्यकम्? सर्वं समानम् इत्युक्तं भवति. अतः अलङ्काराणां पृथक् लक्षणकरणं तु वैयर्थं भवितुमर्हति, लक्षणकरणवैयस्य प्रसङ्गः भवितुमर्हति. अतः किञ्च
लक्षणं
अत्र लक्षणं नाम काव्यस्य लक्षणं ध्वनिलक्षणम् इति उच्यते. ध्वनेः लक्षणम् इति अन्यैः कृतं स्यात् न, वयमेव वदामः ध्वनेः लक्षणम् अन्ये कृतवन्तः सन्ति इति वदामश्चेत्, पूर्वपक्षणम् उद्दिश्य एकः ग्रन्थकारः वदन्नस्ति अन्यैः लक्षणे कृते चेत् तदा पक्षसंसिद्धिरेव न, ध्वनेः लक्षणं वयं कृतवन्तः इति अन्ये वदन्ति चेत् तदेव अपेक्षितः आसीत्. अहं किं कर्तुं प्रवृत्तः? ध्वनिः अस्ति, ध्वनेः लक्षणम् एवमस्ति इति अहं वक्तुम् उद्युक्तः. वयमेव ध्वनेः लक्षणम् एवमिति कृतवन्तः स्मः इति चेत् मम पक्षः एव सिद्धः भवति. यदि अन्यैः ध्वनेः लक्षणं कृतमस्ति तर्हि पक्षसंसिद्धिरेव न, मम पक्षस्यैव सिद्धिः भवितुमर्हति. कृतेऽपि च कृतेऽपि वा पूर्वमेव अन्यैः ध्वनिलक्षणे पक्षसंसिद्धिरेव न, यस्मात् ध्वनिरस्ति इति न पक्षः. किमर्थमिति चेत् अस्माकं पक्षः नाम कः इति चेत् ध्वनिः अस्ति इति न पक्षः. ध्वनिरस्ति इति न पक्षः. तथा प्रागेव संसिद्धः इति अयत्नसम्पन्नसन्निहितार्थाः प्रवृत्ताः. वयं ध्वनिः अस्ति, ध्वनेः लक्षणं करणीयमिति वयं कर्तुं प्रवृत्ताः. तदिदानीमेव कृतमस्ति इति वदन्ति चेत् यत्नाद्विना अस्माकं कार्यं सिद्धमभवत्. अतः अयत्नसम्पन्नसन्निहितार्थाः अस्माकं प्रयोजनम् यदस्ति तद् अयत्नेनैव सज्जनति सिद्धम् इति कृत्वा वयं कृतार्थाः समीहितार्थाः संवृत्ताः इति एवम् उक्त्वा इदानीं सम्पूर्णतया भक्तिपादोऽपि निराकृतः अभवत्. इदानीम् अग्रे अन्ये केचन ध्वनिः अस्ति तस्य स्वरूपं वर्णयितुं न शक्यते इति उक्तवन्तः किल अत्र उद्दिश्य वदति. यदि सहृदय हृदय संवेद्यम् अनाच्येयमेव ध्वनेः आत्मानम् आम्ना शिशुः केऽपि न परीक्ष्यवादिनः. अन्ये ध्वनिः अस्ति इति वक्तुं शक्यते किन्तु तस्य स्वरूपं शब्दैः वर्णयितुमेव न शक्यम् इति उक्तवन्तः किल. आम्ना शिशुः इति ध्वनेः आत्मानम् आम्ना शिशुः, ध्वनेः आत्मा एवम् इति विवरणं कर्तुम् एव उद्युक्ताः ते वक्तुमेव शक्यमिति उक्तवन्तः. ते न परीक्ष्यवादिनः, सम्यक् परीक्ष्य न उक्तवन्तः. यदि सम्यक् परीक्षितं स्यात् ध्वनेः स्वरूपं वर्णयितुं शक्यते एव. किमर्थमिति चेत् यतः उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशेषलक्षणे प्रतिपादितेऽपि वचनाच्छेयत्वं तत्सर्वेषामेव वस्तूनां तत्प्रसक्तम्. वयम् एतावत्पर्यन्तं ध्वनेः लक्षणं सम्यक् उक्तवन्तः, उदाहरणं सर्वं दर्शितवन्तः, ध्वनेः सर्वम् एवम् इत्युक्तवन्तः स्वरूपम् इति. इदानीमपि ध्वनिः वक्तुं न शक्यते इति वदति चेत् सर्वेषां वस्तूनां विषये तत्तदेव सम्भवति. लक्षणम् उक्त्वा उदाहरणं दर्शयित्वा एवम् इति वदामश्चेदपि न वक्तुं न शक्यते इति वदति चेत् सर्वेषां वस्तूनां तथैव आसन्दः इति वर्णयितुमेव न शक्यते इति वदति. अहम् आसन्दस्य स्वरूपं वर्णितवान्, आसन्दं पुरतः दर्शितवान्, तदानीमपि आसन्दः नाम कः इति वक्तुं न शक्यते इति वदति चेत् जगति तदेव विद्यमानानां सर्वेषां वस्तूनां वस्तूनां तत्प्रसक्तम्. यदि पुनः ध्वनेः अतिशयोक्त्यानया काव्यान्तरातिकायितैः स्वरूपमाख्यायते तत्तेऽपि युक्ताभिदायिनः एव. अथवा एवं वदन्ति चेत् तथा न, ध्वनेः अतिशयोक्तिं वक्तुम्, अतिशयोक्ति नाम ध्वनेः स्वरूपम् अतिविशिष्टम् इति वक्तुं वक्तुमेव न शक्यते इति भवन्तः वदन्तः सन्ति चेत् वयमपि तदेव इच्छामः. यदि ध्वनेः अतिशयोक्त्या, ध्वनिविषये अतिशयोक्ति, ध्वनिः नाम असाधारणं न इति वक्तुम् इच्छन्तः भवन्तः यदि काव्यान्तर अतिशायितैः स्वरूपम् आख्यायते, ध्वनिः यत्र अस्ति तत् अन्यकाव्येभ्यः सर्वथा अतिशयितम् इति वक्तुं ध्वनेः स्वरूपं वर्णयितुं न शक्यते इति वक्तवन्तः सन्ति चेत् तद् चेत् युक्ताभिधायिनः एव तथा वदन्ति चेत् वयं चिन्तयामः चेत् समीचीनमेव वदन्तः सन्ति. किमर्थमित्युक्ते वयमपि वस्तुतः तदेव वदामः. ध्वनिः इति यः अस्ति तद् किमर्थं शब्देन वक्तुं न शक्यते इति वयं वदामः इत्युक्ते सामान्यविवरणगम्यं नास्ति तत्, सर्वैः नावगम्यते. ये तस्मिन् विषये कृतपरिश्रमाः सन्ति ते केवलम् अवगच्छन्ति. अतः सर्वेषां पुरतः तत् वर्णनं न शक्येत इति उक्तं चेत् तत्र दोषः नास्ति. अस्माकम् आशयः ते वदन्तः सन्ति इति इत्येवं धन्यवादस्य प्रथमः उद्योगः समाप्तः. द्वितीयमस्ति अवगमस्य किञ्चिदेव आरम्भं कृत्वा इत्येवं भवति. प्रथम उद्योगे विशेषतया किं कृतवान् अस्ति इत्युक्ते विशिष्य आनन्दवर्धनः ध्वनेः विषये विप्रतिपत्तयः याः सन्ति तद्विषये सम्यक् विश्लेषणं कृतवान्. अभाववादः, भक्तिवादः, भाक्तवादः, अनिर्वचनीयवादः, तान् त्रीन् वादानपि सम्यक् परिशील्य ध्वनेः लक्षणं सर्वं कृत्वा स्वरूपं वर्णयित्वा एकत्र किञ्चिदेव विभागं दर्शितवान्. उदाहरणानि सर्वाणि दर्शयित्वा प्रथमम् उद्योगं समापितवान्. द्वितीयम् उद्योगे विशेषतया ध्वनिविभागं दर्शयित्वा उदाहरणानि दर्शयति. तत्रापि पुनः द्वितीय उद्योगेः तृतीय उद्योगेः उद्योगेः ध्वनेः उदाहरणानि एव दर्शितानि सन्ति. ध्वनिविभागाः दर्शिताः सन्ति, ध्वनेः प्रकाराः. किन्तु द्वितीये उद्योगे व्यङ्ग्यार्थमुखेन भेदाः दर्शिताः सन्ति. तृतीये उद्योगे व्यञ्जकमुखेन दर्शितमस्ति. तत् कथमिति अनन्तरं ज्ञायते. व्यञ्जकः शब्दः, व्यङ्ग्यः अर्थः. द्वितीये उद्योगे अर्थमुखेन ध्वनेः भेदाः दर्शिताः सन्ति. तृतीये उद्योगे परं व्यञ्जकमुखेन भेदः दर्शितः अस्ति. तत् कथमिति पश्यामः. तत्र एकस्मिन् प्रसङ्गे ध्वनेः भेदद्वयम् इत्युक्तमासीत् नाम किं तत् अविवक्षितवाक्यं विवक्षितान्यपरवाक्यम् इति ध्वनेः भेदद्वयं स्मरणे अस्ति वा? अविवक्षितवाक्यं विवक्षितान्यपरवाक्यम् अतः अग्रे इदानीं वदति द्वितीयः उद्योगः. एवम् अविवक्षितवाच्य विवक्षितान्यपरवाच्यत्वेन ध्वनिः इति प्रकारः दर्शितः. तन्न पूर्वम् एकत्र मया दर्शितम् इति अविवक्षितवाच्यः विवक्षितान्यपरः इति भेदेन द्विविधः ध्वनिः मया दर्शितः, द्विप्रकारः दर्शितः. तत्र अविवक्षितवाक्यस्य प्रभेदप्रतिपादनाय इदम् उच्यते. अविवक्षितवाक्यस्य पुनर्भेदः सरलतया अवगन्तव्यं चेत् ध्वनिः इति प्रथमं प्रथमभागद्वयं कुर्मः. अविवक्षितवाच्यध्वनिः विवक्षितान्यपरवाच्यध्वनिः. इदानीम् अविवक्षितवाच्यध्वनिः आसे सत्य पुनः भेदद्वयं कल्पयति. आगामिकक्षायाम् आवश्यकं चेत् चित्रम् इति प्रदर्शयामि. तत्र अविवक्षितवाक्यस्य प्रभेदप्रतिपादनाय तत्र के के प्रभेदाः सन्ति इति प्रतिपादनाय इदम् उच्यते. स्पष्टं किमिति चेत्
अर्थान्तरे संक्रमितम् अत्यन्तं वातिरकृतम् अविवक्षितवाच्यस्य ध्वनिर्वाच्यं विहामतम्
ध्वनिर्वाच्यं विहामतम्
अविवक्षितवाच्यस्य ध्वनेः द्विधामतम् प्रकारद्वयं द्विधा अभिप्रेतमस्ति द्विधामतम् किं किम् इति चेत् एकं तु अर्थान्तरे संक्रमितम् अन्यदेकम् अत्यन्तं तिरस्कृतम् अर्थान्तरसङ्क्रमितवाच्यध्वनिः अनन्तरम् अत्यन्ततिरस्कृतवाच्यध्वनिः अव्यक्षितवाच्यध्वनिः अस्ति किल सः द्विविधः एकः भेदः अर्थान्तरसङ्क्रमितवाच्यध्वनिः अर्थान्तरे संक्रमितम् इति भिन्नं भिन्नमस्ति मिलित्वा मिलित्वा समर्थं पदं वदन्नस्मि अर्थान्तरसङ्क्रमितवाच्यध्वनिः अन्यः अत्यन्ततिरस्कृतवाच्यध्वनिः इति वदन्ति कथम् उदाहरणं पश्यामः स्पष्टं भवति तथा इदाभ्यां च ताभ्यां व्यङ्ग्यस्यैव विशेषः इति व्यङ्ग्यप्रकाशनपरस्य ध्वनिरेव अयं प्रकारः व्यङ्ग्यरूपः ध्वनिः अस्ति तस्यैव प्रकारः व्यङ्ग्यतः व्यङ्ग्यः इति उक्तवान् किल तदेव तत्र अर्थान्तरसङ्क्रमितवाक्यो यथा उदाहरणं दर्शयति स्निग्धश्यामलकान्तिलिप्तवियतो वाताशीकरिणः पयोदसुहृदाम् आनन्दकेकाः कलाः कामम् सन्तु दृढम् कठोरहृदयो रामायणस्य प्रसङ्गः किन्तु वाल्मीकिरामायणस्य प्रतिज्ञ प्रसिद्ध अन्यस्मिन् काले उपलभ्यते रामायणस्य कश्चन प्रसङ्गः रामः अरण्यं गतवान् अस्ति रावणः सीतापहरणं कृतवान् अस्ति तदा एव वर्षाकालस्य आरम्भः भवति तस्मिन् समये रामः आकाशं पश्यन् इदं पद्यं चलति इदानीम् आकाशे घनाः दृश्यन्ते घनाः कीदृशाः घनाः सन्ति इति चेत् स्निग्धश्यामलकान्तिरिक्तवियतः स्निग्धा श्यामला च कान्तिः अस्ति मेघानां कान्तिः कीदृशी अस्ति चेत् स्निग्धा स्निग्धा मसृणा किञ्चित् जलयुक्ता तादृशी स्निग्धा श्यामला च कान्तिः अस्ति तया कान्त्या वियत् लिप्ता अस्ति वियत् नाम आकाशः वियत् आकाशः वियत् वियति वियन्ति आकाशशब्दः तादृशवियतः यत्र सन्ति तादृशाः मेघाः इत्युक्ते एतेषां मेघानां कारणतः मेघानां स्निग्धाः श्यामला च या कान्तिः अस्ति तया कान्त्या इति आकाशः एव स्निग्धः अस्ति तथा इत्युक्ते आकाशे सर्वत्र स्निग्धाः एते श्यामलाः मेघाः आहूताः सन्ति तादृशाः स्निग्धश्यामलकान्तिलिप्तवियतः कस्या गणाः इत्यस्य विशेषणम् एतत् स्निग्धश्यामलकान्तिलिप्तवियतः घनाः एकं विशेषणं द्वितीयं विशेषणं भवति वेल्लद्बलाकाः तत्र बलाकपक्षिणः बकाः इति इत्यपि अर्थं लिखन्ति बलाकपक्षी इति प्रसिद्धः बलाकपक्षिणः मेघे इतस्तः वेल्लन्ति वेल्लन्ति अत्र तु स्फुरन्ति इति अर्थः लिखितः तत्र तत्र एते बलाकाः अपि तत्र तत्र सन्ति तादृशाः मेघाः इत्युक्ते बलाकपक्षिणः अग्रे इतः परं वृष्टिर्भविष्यति इति कृत्वा तं सङ्केतं प्राप्य आगतः वेल्लद्बलाकाः घनाः सन्ति वाताः शीकरिणः वाताः वायवः कथं सन्ति इति चेत् शीकरिणः शीकरं नाम शीकरोम्बुकणः स्मृतः इति अमरकोशः जलकणाः शीकराः
शीघ्रैः युक्ताः सन्ति. इत्युक्ते वायुः यः आगच्छति तस्मिन् वायौ जलकणाः सन्ति. नाम उडुपि मध्ये वृष्टिः अस्ति ततः वायुः वेगेन अत्र आगच्छति चेत् तस्मिन् वायौ जलकणाः भवितुमर्हन्ति. नाम दूरे कुत्रचित् वृष्टिरस्ति, वृष्टिरारभ्यते इति सूचना. अतः शीकरिणः वाताः जलकणसहिताः वायवः सन्ति. पयोदसुताम् आनन्दशीकाः कलाः. पयोदाः मेघाः, मेघानां सुहृदः के मयूराः सन्ति. पयोदसुताम् नाम मेघाः, मयूराणाम् पयोदसुताम् मयूराणाम् आनन्दशेखाः कलाः. आनन्दशेखाः इदानीम् अत्र दृश्यन्ते. शेखाः शब्दाः, शेखाः कलाः आनन्दरूपेण अत्यन्तम् आनन्देन अत्र इदानीं क्रियमाणाः सन्ति. शब्दाः श्रूयन्ते. पयोदसुताम् आनन्दशेखाः कलाः. रामः इदानीम् अत्र दण्डकारण्ये कुत्रापि अस्ति. सीता तु कुत्र अस्ति इत्यपि सः इदानीं न जानाति. अतः विशिष्य एतादृशे प्रसङ्गे विरहस्य आधिक्यं भवति, स्मरणम् अधिकं भवति. अतः सः वदन्नश्चेत् सर्वं दृष्ट्वा कामम् सन्तु. एतादृशानि सन्ति किल यानि यानि प्रवर्तन्ते, दृश्यन्ते इदानीं. पाताः एवं सन्ति, घनाः एवं सन्ति, मयूराः एवं कुर्वन्ति. एतत् सर्वम् अस्ति किल, एतत् सर्वं भवतु कामम् यथेष्टम्. कामम् सन्तु. वस्तुतः एतत् सर्वम् विरहाधिक्यजननकारणम्. विरहस्य अधिकताम् उत्पादयितुम् एतानि सर्वाणि कारणानि भवन्ति. अतः वदन्नस्ति कामम् सन्तु. कठोरहृदयो रामोऽस्मि सर्वम् स्महे सहे यावदपि भवतु मम चिन्ता. किमर्थम् अहम् कः इति चेत् कठोरहृदयः. मम हृदयम् अत्यन्तम् कठोरमस्ति. कठोरहृदयः रामः अस्मि अहम्. अहम् कः अस्मि? रामः. अहम् सर्वम् सहे, सर्वमपि अहम् सोढुम् शक्नोमि. यावदपि रक्तम् भवतु अहम् सोढुम् शक्नोमि. किन्तु वैदेही तु कथम् भविष्यति? सीता कथम् तिष्ठे, सीता कथम् भविष्यति इति स्मृत्वा सः हहा इत्युक्त्वा मनसि एव सीतायाः मुखम् परिकल्प्य तामुद्दिश्य ताम् सम्बोध्य वदन्नस्ति हा देवि धीरा भव इति. धैर्यम् वहतु, धीरा भव इति वदन्नस्ति. अस्मिन् पद्ये कः वदति एतद्वाक्यम्? रामः वदन्नस्ति. रामः एव यदा एतद्वाक्यम् वदन्नस्ति सः वदन्नस्ति रामोऽस्मि सर्वम् सहे, अहम् रामः अस्मि सर्वम् सहे इति वदति. रामशब्दस्य अभिधार्थः कः अस्ति? मुख्यार्थः रामः इति वदन्ति चेत् भवन्तः कं स्मरन्ति? दशरथस्य पुत्रमेव स्मरन्ति किल. दूरदर्शने रामायणं यदा प्रसार्यमाणम् आसीत् अरुणगोविन्दं स्मरति. तद्विहाय रामायणम् इति कथनेन वयं तु साक्षात् दशरथस्य पुत्रं स्मरामः. अतः रामः इत्यस्य मुख्यार्थः दशरथपुत्रः इत्यस्ति किल, प्रसिद्धः रामः नास्ति. सः अर्थः अत्र विवक्षितः एव न. यः वदति सः एव पुनः अहम् रामः अस्मि इति वदति. तस्य आवश्यकता अस्ति वा विश्वासाम् पाठयामि इति पुनः कथनस्य आवश्यकता अस्ति वा? रामोऽस्ति सह्य सर्वम् सर्वेति कथम्? रामस्यैव इति कृत्वा रामशब्दस्य यः मुख्यः अर्थः दशरथपुत्ररूपः अस्ति सः अत्र विवक्षितः एव न. अतः अविवक्षितवाच्यध्वनिः अभवत्. मुख्यम् अविवक्षितवाच्यध्वनिः इत्यस्य सङ्गमनम् अभवत्. अविवक्षितवाच्यध्वनौ विधः प्रकारः एच अस्ति अर्थान्तरे सङ्क्रमितम्. अयम् अर्थः अन्यस्मिन् अर्थे सङ्क्रमितः भवति, अन्यस्मिन् अर्थे सङ्गतः भवति. रामशब्दस्य अर्थः कस्मिन् अर्थे इति चेत् कीदृशः रामः इति चेत् अत्र व्याख्याने लिखति रामः अहं कीदृशः इति चेत् राज्यं परित्यज्य अरण्यम् आगतवान्, अत्र जीवनं कृतवान्, सीता इदानीं दूरं गता, तथापि जीवन् अस्मि किल, तादृशः रामः अहम्. तदेव अत्र व्याख्यानकारः लिखति भीषण वनगमन तत्र भवतां पुस्तके भीषण वनगमन जटावल्कल वहन जनक निधन दैताहरण जन्य दुःखातिशय सहनशीलम् तावतापि संभावित जीवितत्वम् एषा रामः इति कथनेन यः भीषणं वनं गतवान् अस्ति यः जटावल्कलादिकं दत्तवान् अस्ति यः पितुः मरणानन्तरमपि पत्न्याः अपहरणानन्तरमपि सुखेन जीवन् अस्ति सः रामः इत्यर्थः भवति. अतः रामशब्दस्य प्रथमः यः अर्थः अस्ति दशरथः पुत्रः इत्यर्थः अस्ति सः अर्थः यद्यपि अत्र विवक्षितः नास्ति सः अर्थः अन्यस्मिन् अर्थे सङ्क्रान्तः भवति. कस्मिन् अर्थे इति चेत् एतादृशपरीक्षितौ अपि जीवान् धारयन् रामः इत्यर्थे सङ्क्रमितः भवति. अतः अर्थान्तरे सङ्क्रमितम् इत्यस्य एतदुदाहरणम् स्वपद्यम् उक्त्वा अनन्तरम् इत्यत्र रामशब्दः इत्यस्य नाम इत्यत्र रामशब्दः अनेन हि व्यङ्ग्यधर्मान्तररूपपरिणतः सन्धि प्रत्यायते न तु सन्धिमात्रम्. अत्र रामशब्देन तदेव दशरथपुत्रः इत्यर्थः केवलं न एतादृश एवं विशेषणसहितः रामः इति अर्थोऽपि सम्यक् केवलं न इति विशेषादिसहितः सा आनीयते. इत्युक्ते एतादृशविशेषणानि उक्तवान् किल तत् सहितः अर्थः आनीयते इति एतस्य वाक्यस्य अर्थः. अग्रे यथा अस्ति वा ममैव विषमबाणलीलायाम् अयम् कः अस्माकं धन्यालोककारः आनन्दवर्धनः विषमबाणलीला इति अन्यदपि एकं काव्यं प्राकृतकाव्यं रचितवान् इति श्रूयते. तस्य एकं पद्यं सः वदति तदा जायन्ते गुणाः यदा ते सहृदये दृश्यन्ते रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि यदा तदा जायन्ते गुणाः लोके केचन सद्गुणाः इति प्रसिद्धाः सन्ति विनयः सौजन्यम् उदारता बहवः गुणाः सन्ति. ते गुणाः तदा गुणाः भवन्ति कदा यदा सत्पुरुषाः गृह्णन्ति. सत्पुरुषाः एतान् गुणान् यदा गृह्णन्ति तदा ते गुणाः भवन्ति. कश्चन बालः पुरुषं न गायति इति चिन्तयति तस्मिन् गानरूपः कश्चन गुणः अस्ति. कश्चन सत्पुरुषः तद् गृह्णाति चेत् तदा स वस्तुतः गुणः सार्थकः भवति. तदा गुणाः जायन्ते कथम् इति चेत् रविकरणानुगृहीतानि भवन्ति कमलानि कमलानि. कमलानि यानि सन्ति कमलपुष्पाणि वस्तुतः तानि कदा कमलानि भवन्ति इति चेत् रविकिरणानुगृहीतानि भवन्ति चेत् सूर्यकिरणाः तदुपरि यदा निपतन्ति तदा तानि वस्तुतः कमलानि भवन्ति. कमलानि तदा एव कमलानि भवन्ति. कः अर्थः अरे नाना तानि कमलानि न सन्ति वा इति पृच्छति चेत् तादृशस्य कमलस्य जीवनं व्यर्थं यदुपरि सूर्यकिरणः न पतितः. इत्युक्ते सूर्यकिरणस्य पतनेनैव कमलस्य कमलत्वं तस्य जीवितं तदा एव साक्षिणं भवति अन्यथा नाममात्रं तद् कमलम्. अतः कमलानि कमलानि भवन्ति. प्रथमं कमलं विदस्ति कमलम् इत्यस्य कमलं पुष्पम् इत्येव तदेव तद् कमलं भवति इति वदति चेत् सूर्यकिरणानुग्रहयोग्यम् सूर्यकिरणानुग्रहेण धन्यजीवितम् इति द्वितीयः अर्थः. सः द्वितीयः अर्थः अस्ति किल सः उच्यते अर्थान्तरे सङ्क्रमितवाक्यत्वे. इतोपि प्रसिद्धम् एकम् उदाहरणम् अत्र विद्यमानम् भवन्तः सर्वेपि जानन्ति अतः वदामि. काककृष्णः पिककृष्णः श्रुतवन्तो वा वदन्तु काककृष्णः पिककृष्णः
वसन्तकाले सम्प्राप्ते काकः
प्रसिद्धं पद्यमेतत्. काकस्यापि कृष्णवर्णः अस्ति, पितस्यापि कृष्णवर्णः अस्ति, तयोः मध्ये कः भेदः अस्ति इति पृच्छति चेत् वसन्तकालः यदा आगच्छति तदा काकः काकः भवति, कीटः कीटः भवति. काकः काकः भवति इत्युक्ते कः अर्थः? द्वितीयवारं काकः शब्दस्य कर्कशरटनशीलः इत्यर्थः. काकः काकः भवति इत्युक्ते काकः कर्कशरटनशीलः भवति इत्यर्थः. पिकः पिकः द्वितीय पिकः इत्यस्य कः अर्थः? मधुरपूजनसमर्थः इति किमपि पिकः सम्यक् इति किल, अतः पिकः मधुरपूजनसमर्थः इति तदा निर्णयः भवति. तावत्पर्यन्तं काकः काकः पिकः पिकः तावदेव. कमलानि कमलानि भवन्ति, गुणाः गुणाः भवन्ति. अतः अत्र द्वितीयकमलशब्दः अस्ति किल कमलम् इत्यत्र द्वितीयः कमलशब्दः अर्थान्तरे सङ्क्रमितवाच्यध्वनेः उदाहरणम्. केवलं कमलं कमलपुष्पम् इत्यर्थः न, सूर्यकिरणस्पर्शकारणात् यस्य जन्म सार्थकमस्ति तादृशं कमलम् इति द्वितीयस्य अर्थस्यैव तत्र प्राधान्यं भवति. एवम् अर्थान्तरसङ्क्रमितवाच्यध्वनेः उदाहरणम् एतत् अत्यन्तपुरस्कृतध्वनेः उदाहरणं किम् इत्यादिकम् अग्रिमकक्षाय.
सर्वे सन्तु निरामयाः, सर्वे सन्तानि पश्यन्तु, मा कश्चित् शुक्रवार भवेत्. ॐ शान्ति शान्ति शान्तिः.